श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ चतुर्विंशोऽध्यायः श्रीभगवानुवाच अथ ते संप्रवक्ष्यामि सांख्यं पूर्वैर्विनिश्चितं यद्विज्ञाय पुमान् सद्यो जयाद्वैकल्पिकं भ्रमम् आसीज्ञानमथो ह्यर्थ एकमेवाविकल्पितम् यदा विवेकनिपुणादौ कृतयुगे युगे तन्मायाफलरूपेण केवलं निर्विकल्पितं वाङ्मनो गोचरं सत्यं द्विधा समभवद्बृहत् तयोरेकतरोऽर्थः प्रकृतिस्तोभयात्मिका ज्ञानं त्वन्यतमो भावः पुरुषस्सोऽभिधीयते तमोरजस्सत्त्वमिति प्रकृतेरभवन् गुणाः मया प्रक्षोभ्यमाणाय पुरुषानुमतेन च तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ततो विकुर्वतो जातो हंकारो यो विमोहनः वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् तन्मात्रेन्द्रियमनसाङ्कारणैचिदचिन्मयः अर्थस्तन्मात्रिका जज्ञे तामसादिन्द्रियाणि च तैजसा देवता सन्नेकादश च वैकृतात् मया संचोदिता भावा सर्वे संहत्यकारिणः अण्डमुत्पादयामासुर्ममायतनमुत्तमम् तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ मम नाभ्यामभूत् पद्मौ विश्वाख्यं तत्र चात्मभूः सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा देवानामोकासीत् स्वर्भूतानाय च भुवः पदम् मर्त्यादीनाय च भूर्लोकसिद्धानां त्रितयात् परम् अधो सुराणानागानां भूमेरोको सृजत् प्रभुः त्रिलोक्यांगतय सर्वाक् कर्मणां त्रिगुणात्मनां योगस्य तपसश्चैव न्यासस्य गतयो मलाः महर्जनस्तपस्सत्यं भक्तियोगस्य मद्गतिः मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् गुणप्रवाहये तस्मिन्नुन्मज्जति निमज्जति अणुर्बृहत्कृशस्थूलो यो यो भावः प्रसिद्ध्यति सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च यस्तु यस्यादिरन्तश्च स वै मध्यै च तस्य सन् विकारो व्यवहारार्थो यथा तैजसपार्थिवाः यदुपादाय पूर्वस्तु भावो विकुरुते परम् आदिरन्तो यदा यस्य तत्सत्यमभिधीयते प्रकृतिर्यस्योपादानमाधारः पुरुषः परः सतोभिर्व्यञ्जककालो ब्रह्मतत्त्रितयन्त्वहम् सर्गः प्रवर्तते तावत्पौर्वापर्येण नित्यशः महान् गुणविसर्गार्थस्थित्यन्तो यावदीक्षणम् विराण्मयासाद्यमानो लोककल्पविकल्पकः पञ्चत्वाय विशेषाय कल्पते भुवनैः सह अन्ये प्रलीयते मर्त्यमन्नन्धानासुलीयते धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे लीयते ज्योतिषिरसो ज्योतिरूपे प्रलीयते रूपौ वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे अम्बरम् शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु यो निर्वैकारिके सौम्य लीयते मनसीश्वरे शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः सलीयते महान् स्वेषु गुणेषु गुणवत्तमः ते व्यक्ते संप्रलीयन्ते तत्काले लीयते व्यये कालो आत्मा केवल आत्मस्थो विकल्पापाय लक्षणः एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः मनसो हृदि तिष्ठेतव्योऽम्नीवार्को दयेतमः एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः प्रतिलोमानुलोमाभ्यां परावरदृशामया इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे चतुर्विंशोऽध्यायः ॐ सर्वं श्रीकृष्णार्पणमस्तु।